श्री सीतारामचंद्राभ्याम नमः। श्रीमद् वाल्मीकि रामायणं बालकांडं त्रयस्त्रिंशः सर्गः। तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः शिरोभिश्चरणौ स्पृष्ट्वा कन्या शतम् भाषत। वायुः सर्वात्मको राजन् प्रदर्शयितुम् इच्छति अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते। पितृमत्यः स्म भद्रं ते स्वच्छन्देन वयं स्थिताः पितरं नो वृणीष्व त्वं यदि नो दास्यते तव। तेन पापानुबन्धेन वचनं न प्रतीक्षता एवं ब्रुवन्त्यः सर्वाः स्म वायुनाभिहता भृशम्। तासां तु वचनं श्रुत्वा राजा परम धार्मिकः प्रत्युवाच महातेजाः कन्या शतमनुत्तमम् शान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत्कृतम्। ऐकमत्यमुपागम्य कुलं चावेक्षितं मम अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा दुष्करं तच्च वैक्षान्तं त्रिदशेषु विशेषतः। यादृशी वः क्षमा पुत्र्यः सर्वासां विशेषतः क्षमादानं क्षमा सत्यं क्षमा यज्ञाश्च पुत्रिकाः। क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् विसृज्य कन्याः काकुत्स्थ राजा त्रिदश विक्रमः। मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः देशे काले च कर्तव्यं सदृशे प्रतिपादनम्। एतस्मिन्नेव काले तु चूली नाम महाद्युतिः ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् तपस्यन्तमृषिं तत्र गन्धर्वी पर्युपासते। सोमदानाम भद्रं ते उर्मिला तनया तदा सा च तं प्रणता भूत्वा शुश्रूषणपरायणा उवासकाले धर्मिष्ठा तस्यास्तुष्टोद्भवद्गुरुः। स च तां कालयोगेन प्रोवाच रघुनन्दन परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम्। परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम् उवाच परम प्रीता वाक्यज्ञा वाक्यकोविदं लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः। ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम्। अपतिष्ठास्मि भद्रं ते भार्या चास्मि न कस्यचित् ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम्। तस्याः प्रसन्नो ब्रह्मर्षिः ददौ ब्राह्मम् अनुत्तमम्। ब्रह्मदत्त इति ख्यातम् मानसं चूलिनः सुतम्। स राजा ब्रह्मदत्तस्तु पुरी मध्यवसत्तदा काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवं सबुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः ब्रह्मदत्ताय काकुत्स्थ दातुं कन्या शतं तदा तमाहूय महातेजा ब्रह्मदत्तं महीपतिः ददौ कन्या शतं राजा सुप्रीतेनान्तरात्मना यथा क्रमं तदा पाणिं जग्राह रघुनन्दन ब्रह्मदत्तो महीपालः तासां देवपतिर्यथा स्पृष्टमात्रे तदा पाणौ विकुब्जा विगतज्वराः युक्तं परमया लक्ष्म्या बभौ कन्या शतं तदा स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः बभूव परमप्रीतो हर्षं लेभे पुनः पुनः कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिं सदारं प्रेषयामास सोपाध्याय गणं तदा सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियां यथा न्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः।